ॐ नमो भगवते वासुदेवाय ॐ श्रीकृष्ण परमात्मने नमः राजोवाच यया गुप्तसहस्राक्ष सवाहान्दिपुसैनिकान् क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभजे श्रियं भगवं स्तन्ममाख्याहि वर्मनारायणात्मकं यथा तदायिनः शत्रून् येन गुप्तो जयन्मृधे श्रीशुक उवाच वृतपुरोहितस्त्वाश्रो महेन्द्रायानुपृच्छते नारायणाख्यं वर्माह तदिहैगमनाशृणु विश्वरूप उवाच दौताङ्क्रिपानिराचम्य सपवित्र उदङ्मुखः कृतस्वाङ्गकरन्यासो मन्द्राभ्यां वाग्यदश्युचिः नारायणमयं वर्म सन्नह्येद्भय आगते पादयोर्जानुनोरुर्वोर्उदरे हृद्यधोरसि मुखे शिरस्यानुपूर्व्यात् ओंकारादीनि विन्यसेत् ओं नमो नारायणायेदि विपर्ययमधापि वा करन्यासं ततः कुर्यात् द्वादशाक्षरविद्यया प्रणवादियकारान्दम् अङ्गुल्यङ्गुष्टपर्वसु न्यसेद्हृदय ओंकारं विकारमनुमूर्धनि षकारं तु भ्रुवोर्मध्ये नकारं शिखया दिशेत् वेकारं नेत्रयोर्युञ्ज्यात् नकारं सर्वसन्धिषु मकारमस्त्रमुद्दिश्य मन्द्रमूर्तिर्भवेद्बुधः सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ॐ विष्णवे नम इति आत्मानं परमं ध्यायेत् ध्येयं षट्शक्तिभिर्युतं विद्या तेजस्तपो मूर्तिम् इमं मन्द्रमुदाहरेत्। मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मपदगेन्द्रपृष्ठे दरारि चर्मासि गदेषु चाप पाशाण्डदानोऽष्टगुणोऽष्टबाहु जलेषु मां रक्षतु मत्स्यमूर्तिर्यादो गणेभ्यो वरुणस्य पाशात् स्थलेषु मायावणुवामनोव्यात् त्रिविक्रमखेवतु विश्वरूप दुर्गेष्वडव्याजिमुखादिषु प्रभु पायान्नृसिंहो सुरयूथपारि विमुञ्जतो यस्य महाट्टहासं दिशो विनेदुर्न्यपदंश्च गर्भाः रक्षत्वसौमाध्वनि यज्ञकल्प स्वदंश्रयोन्नीतधरोवराः रामोद्रिकूडेश्वध विप्रवासे तलक्ष्मणो व्याद्भरताग्रजोऽस्मान् मामुग्रधर्मादखिलात् प्रमादात् नारायणः पातु नरश्च हासात् दत्तस्त्वयोगादधयोगनाथ पायाद्गुणेशकपिलकर्मबन्धात् सनत्कुमारो वदु कामदेवात् हयशीर्षा मां पतिदेवकेलनात् देवर्षिवर्य पुरुषर्चनान्तरात् कूर्मोहरिर्मां निरयादशेषात् धन्वन्तरिर्भगवान् पात्वपथ्यात् द्वन्द्वाद्भयादृशभो निर्जितात्मा यज्ञश्च लोगादवदज्जनान्दात् बलोगणात् क्रोधवशादहीन्द्रः द्वैपायनो भगवानप्रबोधात् बुद्धस्तु पाखण्डगणात् प्रमादात् कल्किकले कालमलात्प्रपादु धर्मावनायोरुकृतावतारः मां केशवो गदया प्रातरव्यात् गोविन्दासङ्गवमात्तवेणु नारायण प्राण उदात्त शक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः देवो पराह्ने मधुहोग्रधन्वा सायं त्रिधामावदु माधवो मां दोषे हृषीकेश उदार्धरात्रे निशीथये कोवतु पद्मनाभः श्रीवल्सधामा पररात्रैश प्रत्यूष ईशोऽसि धरो जनार्दन दामोदरो व्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः चक्रं युगान्दानलतिग्मनेमि भ्रमत्समन्दाद्भगवत्प्रयुक्तं दन्दग्धिदन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः गदेश निस्पर्शन विस्फुलिङ्गे निष्पिण्डि निष्पिण्ड्यजितप्रियासि कूष्माण्डवैनायक यक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् त्वं यादुधान प्रमद प्रेतमातृ पिशाच विप्रग्रह घोरदृष्टीन् धरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोरेर्हृदयानि कम्बयन् त्वं तिक्मधारासि वरारि सैन्यम् ईश प्रयुक्तो मम चिन्दि चिन्दि चक्षूंषि चर्मं शतचन्द्रच्छादय द्विषामघोनां हर चाप चक्षुषाम् यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यों होभ्य एव वा सर्वाण्येतानि भगवन् नामरूपास्त्रकीर्तनात् प्रयान्तु संक्षयं सद्यो येन श्रेयप्रदीपकाः गरुडो भगवान् स्तोत्रस्थोपश्चन्दोमय प्रभु रक्षत्वशेषकृच्छ्रेभ्यो विश्वक्सेन स्वनामभिः सर्वाबद्भ्यो हरेर्नाम रूपयानायुधानि न बुद्धीन्द्रियमनप्राणान् पान्दुपार्षदभूषणाः यथा हि भगवानेव वस्तुतः सदसच्चय सत्येनानेन नः सर्वे यान्दुनाशमुपद्रवाः यथैकात्म्यानुभावानां विकल्परहितस्वयं भूषणायुधलिङ्गाख्या धर्ते शक्तिस्वमायया तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः पादु सर्वैः स्वरूपैर्न सदा सर्वत्र सर्वग विदिक्षु दिक्षूर्ध्वमधः समन्दात् अन्तर्बहिर्भगवान् नारसिंह प्रहापयं लोकभयं स्वनेन स्वतेजसाग्रस्तसमस्ततेजः। मघवन्निदमाख्यातं वर्मनारायणात्मकं विजेष्यस्यञ्जसायेन दंशितोऽसुरयूथपान् एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा पदावासं स्पृशेत् सद्यः साध्वसात् स विमुच्यते न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हि चेत् इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः योगधारणया स्वाङ्गं जहौ समरुधन्वनि तस्योपरि विमानेन गन्धर्वपतिरेकदा ययौ चित्ररथस्त्रीभिर्वृतो यत्र द्विजक्षयः गगनान्यपतत् सद्यः स विमानो ह्यवाक्षिराः सवालखिल्यवजनात् अस्तीन्यादाय विस्मितः प्रास्य प्राची सरस्वत्यां स्नात्वा धाम स्वमन्वगात् श्रीशुक उवाच य इदं शृणुयात् काले यो धारयति चादृतः तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधे सुरान्। इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे रूपप्रकरणे श्रीनारायणकवचनिरूपणं नाम अष्टमोऽध्यायः।